बृहस्पते प्रथमम् वाचो अग्रम् यत्प्रैरागनामधेनम् दधानाः यदेषाम् श्रेष्ठम् यदधिप्रमासीत्रेणादेषाम् निहितम् गुहाभिः सर्तोमिपतिता पुनः पुनन्तो यत्र धीरामनसा वा समक्रात अत्रा सखायः सख्यानि जानते भद्रैराम् लक्ष्मीर्निहिताधिवाचि यज्ञेन वाचः पादवीयमायन्तामन्वाविन्दन्विषेणप्रविष्टाम् तामाभृत्याव्यदतः पुरत्राताम् सप्त वेभा अभिसन्नामन्ते उदत्वः पश्यन्नदर्शवाच उदत्वः शृण्वन्न श्रेणोत्येनाम् उदत्वस्मै तन्वा अम्विषस्वेशादेवमत्यमुषति सुवासाः उदत्वम् सख्ये स्थिरमेतमाभर्णैनम् यन्मन्त्यभिवादीनेषु अधेन्वाचरति माजयैषवाचम् सुसृवाङ्काफलामा पुष्पाम् यस्मित्याज सचिविधम् सखायम् न तस्य वाच्यपि भागो अस्ति यदीम् शृणोत्यलकम् शृणोति न हि प्रवेद सुकृतस्य पन्थाम् अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेश्वस मा बभूवुः आदघ्नाद उपकक्षाद भूत्वे भस्नात्वा भूत्वे ददृश्रे हृदा दष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः अत्राह त्वम् विजाहुर्वेद्याभिरोह ब्रह्माणो विचारन्तु त्वे इमे येनार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकराधः स एते वाचमभिपद्य पापयाः शिरीस्तन्त्रम् तन्वते अप्रयज्ञयः सर्वे नन्दन्ति यशसागरेण सभासाहेन सख्या सखायः निर्भिषस्मृत्यै दृढनिर्हे रामनम् हितो भवदिवादीनाय ऋतान्तःपोषामास्ते पुष्पाङ्गायत्रन्तो गायति सक्वादीषु ब्रह्मा त्वो वदतिजातविद्याम् यज्ञस्य मात्राम् विमीमीत उत्तः